इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। संसदा पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयं वक्फ संशोधनविधेयकं राज्यसभायाः ह्यः स्वीकृतेः अनन्तरं पारितम्। अस्मै विधेयकाय उच्चसदनेन स्वीकृतिः प्रदत्ता, यस्य पक्षे अष्टाविंशत्यधिकैकशतसंख्यकैः सदस्यैः मतदानं कृतम्। तत्रैव पञ्चनवतिसंख्यकाः सदस्याः विधिं विरुध्य मतदानं कृतवन्तः। राज्यसभायां विधेयके एतस्मिन् प्रायशः द्वादश होरायाः चर्चा समनुष्ठिता। लोकसभया पूर्वमेव विधेयकाय एतस्मै स्वीकृतिः प्रदत्ता आसीत्। अवधेयं वर्तते यत् अस्य विधेयकस्य प्रयोजनं वक्फ सम्पत्तीनां प्रबन्धनं वर्तते, यस्मिन् रिक्तस्थलानां सुरक्षा सामाजिक कल्याणानां संवर्धनस्य प्रावधानं निहितमस्ति। एतदतिरिच्य सम्पत्तिप्रबन्धने पारदर्शितां संवर्ध्य वक्फ मण्डलानां स्थानीयाधिकारिणां मध्ये च समन्वयं स्थापयित्वा हितधारकाणां अधिकाराणां च रक्षां कृत्वा शासने संशोधनमिति अस्य विधेयकस्य प्रमुखप्रयोजनं विद्यते। विधेयके साधितप्रश्नानां प्रत्युत्तरे अल्पसंख्यकविषयकमन्त्री किरेन रिजिजुः उक्तवान् यत् अनेन विधिना कोटिसंख्यकाः निर्धनाः मुस्लिमजनाः लाभान्विताः भविष्यन्ति इति। मणिपुरराज्ये राष्ट्रपति शासनस्य पुष्टिं कुर्वता संसदा वैधानिकः प्रस्तावः अंगीकृतः। वैधानिकः प्रस्तावः मणिपुरविषये संविधानस्य अनुच्छेदस्य 350-301 इत्येतस्य अन्तर्गतम् अस्मिन् वर्षे फरवरी मासस्य 13 दिनांके राष्ट्रपतिना प्रस्तावितघोषणया सम्बद्धो वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अद्य थाईलैण्ड देशस्य बैंकॉक नगरे 6 बिम्स्टेक शिखर सम्मेलने भागं ग्रहीष्यति। अस्य सम्मेलनस्य विषयः बिम्स्टेक इति समृद्धः स्थितिस्थापकः तथा च मुक्तः इत्यस्ति। अत्रावधौ बिम्स्टेक प्रमुख जनसमूहस्य प्रतिवेदनमपि अनुमोदितं भविष्यति, येन बिम्स्टेक समूहस्य भविष्यस्य दिशा निर्णीयते। प्रधानमन्त्री मोदी ह्यः थाईलैण्ड देशस्य द्विदिवसीय यात्रायां बैंकॉक नगरं सम्प्राप्तवान्। असौ थाईलैण्ड देशीयेन स्वसमकक्षीयेन पैतोंग्रात शिनावात्रा इत्यनया सह द्वैपाक्षिकं वार्तालापम् अपि साधितवान्। उभौ नेतारौ भारत थाईलैण्ड देशयोः मध्ये द्वैपाक्षिक सहयोगस्य सम्पूर्ण परिधिम् अपि समीक्षितवन्तौ। राजनीतिक आदान प्रदानस्य, रक्षा सुरक्षा सहभागित्वस्य, सामरिक सहभागित्वस्य, व्यापारस्य, निवेशस्य, जनसम्बद्धस्य च सुदृढीकरणस्य उपायाः अपि अत्रावधौ चर्चिताः। सम्पर्कस्य, स्वास्थ्यस्य, विज्ञानस्य तथा च तन्त्रज्ञानस्य, नवाचारस्य, नवान्वेषणस्य, आंकिकीय विधेः, शिक्षायाः, संस्कृतेः, पर्यटनस्य च सहयोगस्य वर्धनस्य आवश्यकतायाः विषये अपि तौ अवधानं दत्तवन्तौ। बिम्स्टेक शिखर सम्मेलनस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी अद्य यात्रायाः द्वितीये चरणे श्रीलंका देशं प्रति गमिष्यति। यात्राप्रवासे श्रीमोदी श्रीलंकादेशीयेन राष्ट्रपतिना अनुरा कुमार दिसा नायके इत्यमुना सह द्वैपाक्षिकं वार्तालापं करिष्यति। अपरत प्रधानमन्त्री नरेन्द्रमोदी बैंकॉक नगरे थाईलैण्ड देशस्य पूर्व प्रधानमन्त्रिणा थाक्षिन शिनावात्रा इत्यनया सह मिलितवान्। सामाजिक सञ्चारपटले श्रीमोदी तेन सह मेलनम् आनन्ददायकम् इति वर्णितवान्। असौ इत्यपि अवदत् यत् श्रीशिनावात्रा इत्येतस्याः शासनविषये नीतिनिर्धारणे च विस्तृतः अनुभवः अस्ति। प्रधानमन्त्री अवदत् यत् श्रीनावात्रा भारतस्य महान् मित्रमपि अस्ति तथा च अटलवर्येण सह अतीव स्नेहपूर्णः सम्बन्धः अपि आसीत्। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायां गतरात्रौ कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स इत्येतेन दलेन सनराइजर्स हैदराबाद इत्येतद् दलं 80 धावनांकैः पराजितम् इति वार्ताः।